भद्रंगश्रृणयाम देवा भद्रं पश्येमाक्षभिर्यजत्रा स्थिरैरङ्गै सृष्टवास्वस्तु नोभिः व्यशेम देवहितं यदायुः ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न पूषा विश्ववेदाः स्वस्ति नस्तार्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ सहनावतु सहमो भुनक्तु सह वीर्यं करवावहे तेजस्विनावधीतमस्तु मा विद्विषावहे ॐ शान्ति शान्ति शान्तिः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षं तत्त्वमसि त्वमेव केवलं कर्तासि त्वमेव केवलं धर्तासि त्वमेव केवलं हर्तासि त्वमेव सर्वं खल्विदं ब्रह्मासि त्वं साक्षादात्मासि नित्यं ऋतं वच्मि सत्यं वच्मि अवत्वं माम् अववक्तारम् अवश्रोतारम् अवदातारम् अवधातारम् अवानुचानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोत्तरात्तात् अवदक्षिणात्तात् अवचोर्ध्वात्तात् अवाधरात्तात् सर्वतो माम् पाहि पाहि सुमन्तात् त्वं वाङ्मयस्त्वं चिन्मयः त्वमानन्दमयस्त्वं ब्रह्ममयः त्वं सच्चिदानन्दाद्वितीयोऽसि त्वं प्रत्यक्षं ब्रह्मासि त्वं ज्ञानमयो विज्ञानमयोऽसि सर्वं जगदिदं वत्तो जायते सर्वं जगदिदं वत्तस्तिष्ठति सर्वं जगदिदं द्वैलयमेष्यति सर्वं जगदिदं द्वै प्रत्येति त्वं भूमिरापो नलो निलो नभः त्वं चत्वारि वाक्पदानि त्वं गुणत्रयातीतः त्वं देहत्रयातीतः त्वं कालत्रयातीतः त्वं मूलाधारस्थितोऽसि नित्यं त्वं शक्तित्रयात्मकः त्वा योगिनोऽध्यायन्ति नित्यं त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वम् अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवस्वरोम् गणाधिम् पूर्वमुच्चार्य वर्णाधिम् तदनन्तरम् अनुस्वारः परतरः अर्धेन्दुलसितम् तारेण रुद्रम् एतत्तव मनुःस्वरूपम् गकारः पूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारः शान्त्यरूपम् बिन्दुरुत्तररूपम् नादसन्धानम् संविदासन्धिः सैषा गणेश विद्या गणकर्षिः निजृद्गायत्री छन्दः गणपतिर्देवता ॐ गङ्गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ते प्रचोदयात् एकदन्तं चतुर्हस्तं वाशमङ्कुशधारणम् कृतं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् रक्तं लम्बोदरं शूर्पगर्णकं रक्तवासजम् रक्तगन्धानुलिप्तं रक्तपुष्पै सुपूजितम् भक्तानुकम्बिनं देवं जगत्कारणमच्युतम् आविरभूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् एवं ध्यायति यो नित्यं स योगी योगिनां वरः नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्ते अस्तु लम्बोदराय एकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः ॐ एतदथर्वशीर्षयो गीते स ब्रह्मभूयाय कल्पते स सर्वतः सुखमेतते स सर्वविघ्नैर्न बाध्यते स पञ्चमहापापात् प्रमुच्यते सायमधीयानो दिवसकृतं पापं नाशयति प्रातर्धियानो रात्रिकृतं पापं नाशयति सायं प्रातः प्रयुञ्जानो अपापो भवति सर्वत्राधियानोपविघ्नो भवति धर्मार्थकाममोक्षं च विन्दति इदमथर्वशीर्षमशिष्याय न देयम् यो यदि मोहाद्दास्यति स पापीयान् भवति सहस्रावर्तनात् यय्यं काममधीते दन्तमनेन साधयेत् अनेन गणपतिमभिषिञ्चति स वाग्मी भवति चतुर्द्यामनः सञ्जपति स विद्यावान् भवति इत्यतरणवाक्यम् ब्रह्माद्यावरणम् विद्यात् न बिभेति कदाचनेति यो दूर्वाङ्कुरैर्यजति स वै श्रवणोपमो भवति यो लाजैर्यजति सैर्षोवान्भवति समेधावान्भवति यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति यः साज्जसमिद्भिर्यजति सदर्वल्लभते सदर्वल्लभते अष्टौ ब्राह्मणा सम्यक् ग्राहयित्वा सूर्यवर्चस्वी भवति सूर्यगृहे महानद्या प्रतिमा सन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति महाविघ्नात् प्रमुच्यते महादोषात् प्रमुच्यते महापापात् प्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति य एवं वेद इत्युपनिषद गणपतिम् हवामहे कविम् कवीनामुपमश्रावस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पद आनश्रुवन् सीतसादानम् ॐ यज्ञेन यज्ञमायन्त देवास्तानि रमाणि प्रथमान्यासन् देहनाकम् महिमानस्य चन्द यत्र पूर्वे साध्या सन्ति देवाः ॐ राजादिराजाय प्रसय्य साहिने नमो वयमये श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो दधातु कुबेराय वै श्रवणाय महाराजाय नमः ॐ स्वस्ति साम्राज्यम् भोज्यम् स्वराज्यम् वैराज्यम् पारमेष्ट्यौराज्यम् महाराज्यमाधिपत्यमयम् समन्तपर्याये स्यात् सार्वभौमः सार्वायुषान्तार्थात् परार्थात् पृथिव्यै समुद्रपर्यन्ताय एकरादिति तदप्येष श्लोको विगीतो मरुतपरवेष्टारो मरुतस्यावसनगृहे आवेक्षितस्य कामप्रे विश्वे देवाः सभासद इति।